इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। निर्वाचनायोगेन भारतीय जनता पार्टीति दलस्य अध्यक्षः जेपी नड्डा इत्यस्मै, कांग्रेस अध्यक्षः मल्लिकार्जुन खड़गे इत्यस्मै च निर्देशः प्रदत्तः यत् तौ दलस्य प्रमुख प्रचारकेभ्यः एकां सञ्चेतनां प्रकाशयेत् यत् ते एतादृशं वक्तव्यं न दद्युः येन आदर्श आचार संहितायाः उल्लंघनं स्यात्। द्वाभ्याम् अध्यक्षाभ्याम् प्रेषिते पत्रे आयोगः प्रोक्तवान् यत् किमपि दलं कोऽपि प्रत्याशिनः च एतादृशं भाषणं दद्यात् येन समाजे मतभेदं जायेत, सम्प्रदायिकता च प्रवर्धेत। भारतीय रिजर्व बैंक आरबीआई इत्यनेन चतुर्विंशत्यधिक द्विसहस्रतमवर्षयोः वित्तीय वर्षस्य कृते 2.11 कोटि रूप्यकाणाम् अधिशेष रूपेण केन्द्र सर्वकारस्य स्थानान्तरणस्य अनुमोदनं कृतम्। ह्यः मुम्बई नगरे आयोजिते आरबीआई इत्यस्य केन्द्रीय निदेशक मण्डलस्य 88-तमे सत्रे तस्य अनुमोदनं जातम्। आरबीआई अध्यक्षस्य शशिकांत दास इत्यस्य अध्यक्षतायां संघेन वित्तीय वर्षं 23-तमवर्षात् 24-तमवर्षं यावत् सीआरबी 6.55% यावत् वर्धितुं निर्णयः कृतः यतः अर्थव्यवस्था सुदृढा वर्तते। 23-2000-24-2000तमवर्षस्य रिजर्व बैंक इत्यस्य वार्षिक प्रतिवेदनस्य वित्तीय विवरणानां च चर्चायाः अनुमोदनस्य च अतिरिच्य संघेन समस्त आर्थिक परिदृश्यस्य समीक्षापि कृता। ईरान देशस्य दिवंगत राष्ट्रपतेः इब्राहिम रईसी इत्यस्य अन्त्येष्टियात्रा ह्यः तेहरान नगरे अभवत्। तेहरान विश्वविद्यालयात् फ्रीडम स्क्वायर यावत् जनसंख्यायुतेषु वीथिषु कोटिशः शोक संतप्ताः यात्रायां समुपस्थिताः आसन्। रविवासरे उदग्र विमान दुर्घटनायां मृतानां राष्ट्रपति रईसी, विदेशमंत्री हुसैन अमीराब्दुल्लाहियान इत्यादीनां मृतकानां शरीराणि पुरतः ईरानस्य सर्वोच्च नेत्रा अयातुल्लाह अली खामेनी इत्यनेन प्रार्थना समारोहस्य नेतृत्वं कृतम्। अन्त्येष्टौ अनेके उच्चपदाधिकारिणः, राजनीतिक सैन्य प्रतिनिधयः, विदेश गणमान्य जनाः अपि उपस्थिताः आसन्। शोककाले भारतस्य उपराष्ट्रपतिः जगदीप धनखड़ः अपि उपस्थितः आसीत्। कार्यवाहक राष्ट्रपति मोहम्मद मोखवेर अपि शोकसंवेदना प्रकटितवान्। स्पेन देशः अन्ताराष्ट्रिय सौर संयुतेः 99वः सदस्यः अभवत्। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् स्पेन देशस्य राजदूतेन जोशे मारिया रिदावो डोमिंग्वेज इत्यनेन निक्षेप प्रमुखस्य विदेश मन्त्रालयस्य संयुक्त सचिवेन अभिषेक सिंहेन च सह ह्यः नवदिल्ल्यां मेलन समये स्पेन देशेन अन्ताराष्ट्रिय सौर संयुतेः अनुसमर्थनं प्रपत्रं समर्पितम्। अन्ताराष्ट्रिय सौर संयुतिः ऊर्जा प्रवेशम् आनेतुम् ऊर्जा सुरक्षां सुनिश्चीय स्वीय सदस्य देशेषु ऊर्जा संक्रमणं चालयितुं च साधनरूपेण सौरोर्जा प्रौद्योगिकीनां वर्धितायाः परिनियोजनायाः सहकारी मञ्चः अस्ति। आईपीएल क्रिकेट प्रतिस्पर्धायां रॉयल चैलेंजर्स बेंगलुरु दलं राजस्थान रॉयल्स दलेन पराजितम् इति वार्ताः।